मूर्ख कह अमित्रं कुरुते मित्रं मित्रं द्वेष्टिः नस्ति च कर्मचारभते दुष्टं तमाहुर्मूढचेतसं दुर्गुणप्रियाः हि दुर्जनाः न तथेच्छन्ति कल्याणान् परेषां वेदितुं गुणान् यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः परं क्षिपन्ति दोषेण परं क्षिपति दोषेण वर्तमानस्वयं तथा यश्च क्रुध्यत्यनीशानः स च मूढमतो नरः न संरोहति वाक्षतं रोहते सायकैर्विद्धं वनं परशुनाहतं वाचा दुरुक्तं बीभत्सं न संरोहति वाक्षतं सुभाषिता वाक् अभ्यावहति कल्याणं विविधं वाक् सुभाषिता सैव दुर्भाषिता राजन्ननर्थायोपपद्यते मानवभूषणानि अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमःश्रुतं च पराक्रमश्च बाहुभाषिता च दानै यथाशक्तिकृतज्ञता च षड्गुणाः धारणीयाः षडेततु गुणाः पुंसा न हातव्यः कदाचन सत्यं दानमनालस्य मनसूया क्षमा धृतिः पञ्च अग्नयः पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः पिता माताग्निरात्मा च गुरुश्च भरतर्षभ मधुरवाक् द्वे कर्मणि नरः कुर्वन्नस्मिन् लोके विरोचते अब्रुवन् परुषं किञ्चिदसतो नर्चयं स्तथा नरः कीदृशः स्यात् नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोतनी चोपसेवी न चाभिमानी न च हीनवृत्तो वृक्षां वाचं रुषन्तीं वर्जयीत